अस्माभिः मंगलाचरणं कृतं अस्याम कक्षायाम अनुदित सवर्णस्य चा प्रत्ययः इति सूत्रं पठामः। पूर्वस्याम कक्षायाम अस्माभिः तुल्यास्य प्रयत्नं सवर्णं इति सवर्ण संज्ञा विधायकं सूत्रं पठितं। तत्र अस्माभिः पठितं ताल्वादिस्थानं आभ्यन्तरप्रयत्नश्च एतद्द्वयं यस्य येन तुल्यं भवति तन्मितसवर्णसंज्ञं स्यात् इति अस्माभिः पठितम्। ताल्वादिस्थानं नाम तत्र अकोहविसर्जनीयानां कण्ठः इत्यादि सूत्राणि स्मरणीयानि। अनन्तरम् आभ्यन्तरप्रयत्नः नाम अस्माभिः पठितम् आभ्यन्तरप्रयत्नः पञ्चदा स्पृष्ट ईषद्विवृत विवृत संवृत भेदात्। तत्र स्पृष्टं प्रयत्नं स्पर्शानां, स्पर्शाः इत्युक्ते तत्र कादयो मावसानाः स्पर्शाः, ईषत्स्पृष्टम् अन्तस्थानां यणः अन्तस्थाः इत्युक्ते य व ऋ ल, ईषद्विवृतम् ऊष्मणां तत्र ऊष्माणः वर्णाः के इत्युक्ते शलः सः एते ऊष्माणः विवृतं स्वराणां। ह्रस्वस्य अवर्णस्य प्रयोगे संवृतं प्रक्रियादशायां तु विवृतमेव एतावत् पठितम्। एवम् आभ्यन्तरप्रयत्नः स्थानं ताल्वादिस्थानं यदि एतद्वयं यस्य वर्णस्य येन वर्णेन तुल्यं भवति तदा परस्परं तौ वर्णौ सवर्णसंज्ञकौ भवतः इति अस्माभिः पठितम्। तत्र प्रसङ्गवशात् अस्माभिः बाह्यप्रयत्नश्चापि विवरणं पठितम्। इदानीं सवर्णसंज्ञा विधायकं सूत्रं पठितम्। अस्माभिः इदानीं सवर्णसंज्ञा ग्राहकं सूत्रं पठ्यते। सवर्णसंज्ञा ग्राहकं नाम किम्, तत् सूत्रं किम् इति इत्युक्ते अनुदित सवर्णस्य चाप्रत्ययः इति एकं सूत्रं विद्यते। अनुदित सवर्णस्य च अप्रत्ययः तत्र प्रथमाध्यायस्य प्रथमपादस्य अष्टषष्टितम सूत्रम्। अत्र पदच्छेदः अण् उदित सवर्णस्य च अप्रत्ययः इति पदच्छेदः। तत्र अप्रत्ययः इत्यत्र समासः विद्यते, न प्रत्ययः अप्रत्ययः। अत्र प्रत्ययः नाम किम् इति वृत्तिकारः वदति, प्रतीयते विधीयते इति प्रत्ययः। इदानीम् अनुदित सवर्णस्य चाप्रत्ययः इति सूत्रस्य किञ्चित् अन्वयक्रमः अस्माभिः करणीयः। अप्रत्ययः अण् उदित् सवर्णस्य संज्ञा स्यात् इति सूत्रार्थः। अप्रत्ययः नाम किम्, अविधीय न प्रत्ययः अप्रत्ययः, प्रत्ययः नाम प्रतीयते विधीयते इति प्रत्ययः विधीयते इत्युक्ते विधानं यस्य भवति इदानीं किं भवति राम इति प्रातिपदिकस्य सु इति प्रत्ययः विधीयते तदा रामः इति सुबन्तं निष्पन्नं भवति एवमेव भू इति धातोः विकरणप्रत्ययः ति अ विकरणप्रत्ययः अ उत शप् इति विधानेन तिप्तस्झि इति ति इति प्रत्ययस्य विधानेन किं भवति भवति इति रूपं प्राप्नोति तदग्रे प्रक्रियासमये वयं किञ्चित् विस्तरेण पश्यामः परन्तु प्रत्ययः नाम विधानं यस्य भवति सः एव प्रत्ययः एवं प्रतीयते विधीयते इति प्रत्ययः यत्र अविधीयमानः अण् अण् इत्युक्ते अस्माभिः तत्र प्रथमकक्षायामेव अस्माभिः अधीतं तत्र अण् इत्युक्ते आयीवु इति प्रथम अण् इत्यत्र प्रथमसूत्रे विद्यमाननकारः अपि स्वीकर्तुं शक्यते लण्निति सूत्रस्थनकारः अपि स्वीकर्तुं शक्यते तदा अस्माभिः किं करणीयम् इति प्रश्नः तदापि जातः सुजाता भगिनी अन्ये सर्वे पृष्टवन्तः कथं तत्र अस्माभिः ज्ञायते कस्य नकारस्य स्वीकारः करणीयः अण् इति प्रत्याहारेण इति कथं ज्ञायते इति प्रश्नः कृतः तदा अस्माभिः उक्तं तत्र व्याख्यानानुसारेण अस्माभिः स्वीकर्तव्यम् व्याख्यानं कुत्र कृतं भाष्यकारेण कृतं तत् वृत्तिकारेण अत्रापि स्वीकृतं वृत्तिकारः किं वदति अत्र अण् नाम परः परनकारः एव अण् इत्यस्य अस्मिन् सूत्रे अनुदित्सवर्णस्य चाप्रत्ययः इत्यस्मिन् सूत्रे अण् परेण नकारेण इति व्याख्यानं कृतम् इदानीं व्याख्यानुसारेण परनकारं स्वीकुर्मः तदा अप्रत्ययः अण् अण् नाम आयीवु ऋलृ एवो ऐ औ हय व ऋ ल हयवर ल एते वर्णाः अण् वर्णाः इदानीं यदि अण् यदि एते अण्वर्णाः प्रत्ययरूपेण यत्र न विधीयन्ते प्रत्ययरूपेण यत्र न विधीयन्ते तदा किं भवति सवर्णस्य संज्ञको भवति सवर्ण एषः अकारः अण्वर्णः सवर्णस्य संज्ञको भवति तद् इतोपि अग्रे विवरणं करोमि किञ्चित् क्लिष्टमस्ति एतत् सूत्रं किञ्चित् श्रूयताम् अनन्तरम् एतत् सूत्र अनन्तरं पुनः अहं वदामि पुनः एतत् सूत्रस्य वृत्ति इत्यादिकं पुनः वदामि एकवारं पूर्णं गच्छामः पुनः आगच्छामः एवम् अप्रत्ययः अण् उदित् उदित् नाम किम् इत्युक्ते उकारः इत् यस्य सः उदित् उकारः इत् यस्य सः उदित् उ इत्यस्य सः उ इत्यस्य सः इत्युक्ते उकारः इत्युक्ते ह्रस्व उकारः अत्र कु चु टु तु पु एते उदितः इति वृत्तिकारः एव वदति कु चु टु तु पु एते उदितः कु नाम कवर्गः चु नाम चवर्गः टु नाम टवर्गः तु नाम तवर्गः पु नाम पवर्गः एते सर्वे उदितः इदानीं पुनः आगच्छामः अप्रत्ययः अण् उदित् उदितः सवर्णस्य संज्ञा स्यात् इदानीं अत्र व्याख्यानं पश्यामः एतत् संज्ञासूत्रमस्ति सवर्णग्राहकसूत्रमस्ति अण् उदित सवर्णस्य च अप्रत्ययः इति सूत्रस्य पदच्छेदः. इदानीम् इको यणचि इति एकं सूत्रम् स्वीकुर्मः. अत्र इको यणचि इत्यत्र इकः अचिपरे यण् भवति, सर्वे जानन्ति इकः अचिपरे इकः यण् स्यात् संहिताया अचि संहितायां विषयेति वृत्त्यर्थः. इकः अचिपरे यण् भवति इति सूत्रार्थः. तत्र अत्र विधीयमानः तत्र विधीयमानः इत्युक्ते यण् विधीयते अस्मिन् सूत्रे. यण् सन्धौ किं विधीयते? यण् विधीयते. अत्र इकः इकारः इक् इत्युक्ते इकारः इकार ई उ ऋ लृ एते वर्णाः सङ्गृहीताः भवन्ति. तत्र इकः अच् वर् अच् इति प्रत्याहारौ द्वौ अविधीयमानौ इत्युक्ते ते केवलं तत्र विधानस्य उपयोगार्थम् अस्मिन् सूत्रे न सन्ति. इकः अचिपरे यण् भवति. यण् भवति इति यदुच्यते, यद्वाक्यमुच्यते, यण् एव अत्र विधीयमानः अस्मिन् सूत्रे. एवं यण् इति प्रत्याहारेण य व ऋ ल एते वर्णाः सङ्गृहीताः भवन्ति. तत्र यकारस्यापि सवर्णसंज्ञा यकारस्य सानुनासिकयकारः सवर्णसंज्ञको भवति. तद्यकारं वयं यण् सन्धौ न स्वीकुर्मः. किमर्थम् इत्युक्ते यकारः यण् वर्णः अत्र अस्मिन् सूत्रे विधीयमानः. अतः एकस्यैव यकारस्य ग्रहणम्, एवमेव वकारस्य, एवमेव लकारस्यापि. परन्तु इक् इक् इको यणचि इत्यत्र इकः इति प्रत्याहारेण सङ्गृह्यमानाः वर्णाः ई उ ऋ लृ वर्णाः तत्र इकारः इत्युक्ते अष्टादश भेदानां ग्रहणं भवति. एवमेव ईकारस्यापि, इदानीं सुधी प्लस् उपास्यः इति उच्यते चेत् सुधी इत्यत्र ईकारः अस्ति, तथापि ईकारस्य स्थाने यण् वर्णः आदेशो भूत्वा यण् सन्धिः भविष्यति. एवम् अस्माभिः किं ज्ञातव्यम् इत्युक्ते अण् वर्णेन के के वर्णाः अविधीयमानः अण् उदित् च सवर्णस्य संज्ञा स्यात्, सवर्णस्य संज्ञको भवति. एवं प्रत्याह माहेश्वरसूत्रे अण् प्रत्याहारेण गृह्यमाणाः एते वर्णाः सवर्णसंज्ञकाः सवर्णसंज्ञकं शास्त्रे सवर्णसंज्ञकं शास्त्रे ग्रहणं कुर्वन्ति. सर्वत्र ग्रहणं कुर्वन्ति वा इति प्रश्नः. अण् विषये यदि अविधीयमानः अस्ति चेत् न गृह्णाति, यदि अविधीयमानः अस्ति चेदेव गृह्णाति, न तु विधीयमानः अस्ति चेत् न गृह्णाति इति तात्पर्यम्. अवगतं वा किञ्चित्? अस्तु, पुनः कथयामि. एतत् किञ्चित् क्लिष्टमस्ति. इदानीं एतत् संज्ञासूत्रमस्ति, प्रथमं रिवर्स गच्छामः संज्ञासूत्रमस्ति इदानीं संज्ञासूत्रे संज्ञा भवन्ति संज्ञिनः भवन्ति तत्तु अस्माभिः पठितम् इदानीं अदर संज्ञासूत्रे संज्ञा भवन्ति संज्ञिनः भवन्ति इदानीं अण् तत्र अस्मिन् सूत्रे अ इ अण् इत्यनेन अ इ उ ऋ लृ एवो ऐ औ ह य व ऋ ल एते सर्वे संज्ञाः इदानीम् अकारः इदानीम् उदाहरणं पश्यामः इकः यण् अचि इदानीम् इकः इत्युक्ते इकार उकार ऋकार लृकारः अत्र इकः इकः इत्युक्ते किं गृह्यते इति प्रश्नः इकः इकारस्य कति भेदाः सन्ति अष्टादश भेदाः सन्ति अत्र इको यणचि इति सूत्रे इकः इत्यत्र इकार इकारग्रहणात् किम् एकः एव भेदः स्वीक्रियते वा अष्टादश भेदाः स्वीक्रियन्ते वा इति प्रश्नः तदा अस्माभिः उच्यते इकः अत्र अस्माभिः किं द्रष्टव्यम् इकः अण्वर्णः यदि अण्वर्णः अस्ति चेत् सः विधीयमानः अण्वर्णः वा अविधीयमानः अण्वर्णः वा विधीयमानः इत्युक्ते यदि विधानं कर्तव्यम् अत्र इकः विधानं न इको यणचि इत्यत्र इकः विधानं न भवति तदा किम् उच्यते इकः तत्र स्थानी आदेशः निमित्तः इत्युक्ते इकः स्थानी वर्णः इकः स्थाने यण् विधीयते तर्हि इकः अविधीयमानः इकारः अविधीयमानः यत्र अविधीयमानः अण्वर्णः यत्र यत्र शास्त्रे भवति इत्युक्ते यस्मिन् यस्मिन् सूत्रे भवति तदा सः किं गृह्णाति इति प्रश्नः अष्टादश भेदान् गृह्णाति न तु एक एव भेदम् एतदेव अविधीयमानः अण् इदानीं यण् एवमेव अचि इति अस्ति अचि इत्यत्र अच् नाम स्वराः सर्वे स्वराः अत्र अच् वर्णेन अकारः इकारः सङ्गृहीतः एवम् अकारः इति प्लस् अपि इत्यत्र अकारः अस्ति अकारः अष्टादशभेदान् गृह्णाति वा एवम् अकार अचि इत्यत्र अष्टादशभेदम् अस्माभिः स्वीकर्तव्यं वा केवलं ह्रस्वभेदमेव स्वीकर्तव्यं वा इति प्रश्नः तदा उच्यते अस्माभिः यदि अत्र पुनः अकारः अण्वर्णः अण्वर्णः अविधीयमानः वा विधीयमानः वा अत्र अचः विधानं नास्ति इको यणचि इत्यत्र अचः विधानं नास्ति अतः सः अविधीयमानः अण्वर्णः यदि अविधीयमानः अण्वर्णः सः तर्हि अकारस्य एवम् अच्वर्णस्य सर्वे भेदाः अस्माभिः गृहीतव्याः अस्मिन्नेव सूत्रे यण् इत्यत्र यकारः अपि अण्वर्णः यकारः अपि अण्वर्णः हयवरट् इत्यत्र यकारः अस्ति अतः अण् इत्यत्र परेण नकारेण इति स्वीकृत्य अकारः यकारः अपि अण्वर्णः अत्र अस्माभिः यकारस्य सवर्णं गृहीतव्यं वा इदानीम् इको एणचि इति प्लस् अपि इकारस्य इति प्लस् अपि इत्यत्र किं भवति इत्यपि इति भवति यकारः आगच्छति यकारस्य स्थाने यदि तस्य सवर्णोऽपि गृह्यते चेत् यकारस्य सानुनासिक यकारः एकमस्ति इत्यपि इति सानुनासिक यकारस्यापि ग्रहणम् अस्ति वा एवं रूपद्वयम् उत्तरद्वयमस्ति वा इति प्लस् अपि इत्यत्र इति प्रश्नः तदा पुनः अस्माभिः अस्मिन् सूत्रे आगत्य यण् इति यकारः अण्वर्णः वा इति द्रष्टव्यम्। अण्वर्णः अस्ति चेत् विधीयमानः वा अविधीयमानः वा इति द्रष्टव्यम्। अत्र विधीयमानः विधीयमानः अण्वर्णः यकारः, विधीयमानः इत्युक्ते अस्मिन् सूत्रे एतदेव विधीयते, तर्हि अस्माभिः उच्यते यदि विधीयमानः अस्ति चेत् एकस्य एव यकारस्य ग्रहणं कर्तव्यं, न तु सानुनासिक यकारस्य ग्रहणं कर्तव्यम्। एवम् अविधीयमानः, इदानीं पुनः आगच्छामः, अविधीयमानः अण् उदित् च, अविधीयमानः अण् उदित् च सवर्णस्य संज्ञा स्यात् इति सूत्रार्थः। यत्र यत्र शास्त्रे अण्वर्णाः भवन्ति अस्माभिः सदा द्रष्टव्यम् अविधीयमानः वा विधीयमानः वा। यदि अविधीयमानः अण् अस्ति चेत् तस्य तदा सः वर्णः संज्ञा भवति। इदानीं सः वर्णः संज्ञा भवति इत्युक्ते यदि अकारः अस्ति चेत् अकारः संज्ञा भवति। अकारस्य संज्ञायाः यदि यः कोऽपि संज्ञा भवति तस्य संज्ञिनः भवन्ति। इदानीं वृद्धिः इत्युक्ते वृद्धिरादैच् इति सूत्रमस्ति, आत् ऐच् वृद्धिसंज्ञः स्यात्, संज्ञा अपि अस्ति संज्ञी अपि अस्ति। इदानीं दशमकक्षाछात्राः इदानीं दशमकक्षाछात्राः उत किमपि अन्यत् वदामः, दशमकक्षाछात्राः तदेव स्वीकुर्मः, दशमकक्षाछात्रा एषः एते सर्वे दशमकक्षाछात्राः इति संज्ञां दास्यामः। दशमकक्षाछात्राः इति संज्ञायां के के अन्तर्भवन्ति इति प्रश्ने कृते अत्र उच्यते महेशः, सुजाता, महादेवन्, प्रियदर्शिनी, पद्मनाभन्, एते सर्वे दशमकक्षाछात्राः, एते सर्वे संज्ञिनः। दशमकक्षाछात्रा इति संज्ञा अस्माभिः दत्ता, छात्राः इति, एतस्य संज्ञायाः संज्ञिनः के के इति प्रश्ने कृते सर्वेषां नामानि वयं वदामः, तदा संज्ञासंज्ञिनः भवन्ति। इदानीं यदि अविधीयमानः अण् भवति, अण्वर्णः भवति कुत्रापि शास्त्रे, शास्त्रे इत्युक्ते सूत्रे, पाणिनिसूत्रे, तदा अस्माभिः मनसि ध्यातव्यं यदि अविधीयमानः अण्वर्णः अस्ति चेत् अष्टादशभेदाः अस्माभिः स्वीकर्तव्याः। एवं तत्तेन किं प्रयोजनम्? अकारस्य यत् कार्यं भवति आकारस्यापि तदेव कार्यं भवति, प्लुत आकारस्यापि तदेव कार्यं भवति इति अस्माभिः स्वीकर्तव्यम्। इदानीं पश्यतु तत्र सुधी प्लस् उपास्यः इत्यत्र ईकारः अस्ति, ईकारस्यापि किं भवति? यकारः एव भवति सुध्युपास्यः इति। इति प्लस् अपि इत्यत्र ह्रस्व ईकारः अस्ति, ह्रस्व ईकारस्यापि यकारः एव भवति। एवम् इकारस्य यत् कार्यं प्राप्तम् इको यणचि इत्यत्र, दीर्घ ईकारस्यापि स एव कार्य तदेव कार्यं प्राप्तम्। के कथम् इत्युक्ते ईकारस्य सामर्थ्यम् अस्ति अविधीयमानः अण् भूत्वा, तस्य सामर्थ्यं किम् अस्ति? अहं मम सवर्ण अहं मम एका मम संज्ञा अस्ति, मम एका संज्ञा अस्ति, अहं एतया संज्ञया यदा मम नाम स्वीक्रियते तदा अहं मम अष्टादशभेदानपि आह्वयामि। यदि अष्टादशभेदाः भवन्ति चेत् तेषामपि मम कृते यत् कार्यम् ह्रस्व इकारस्य कृते यत् कार्यं भवति सर्वेषां कृते स एव कार्यं भवतु इति गतिः आगच्छति। इदानीम् एवम् अविधीयमानः अण् उदित् च, उदित् च इत्युक्ते कूचु टु तूपु एते उदितः कवर्गः, चवर्गः, टवर्गः, एतेषां सवर्णबोधकम् अस्ति। इदानीम् एतत् स्लैड् पूर्णतया पश्यामः, एतत् संज्ञासूत्रमस्ति, सवर्णग्राहकं सूत्रमस्ति, ಸವರ್ಣಗ್ರಾಹಕಂ ಇತ್ಯುಕ್ತೆ ಕುತ್ರ ಕುತ್ರ ಶಾಸ್ತ್ರೇ ಸವರ್ಣಂ ಗೃಹ್ಯತೆ ಕುತ್ರ ನ ಗೃಹ್ಯತೆ. ಯದಿ ಅವಿಧೀಯಮಾನಃ ಅಣ್ ಅಸ್ತಿ ಚೇತ್ ಸವರ್ಣಂ ಸವರ್ಣಾನಿ ಗೃಹ್ಯಂತೆ. ಯದಿ ವಿಧೀಯಮಾನಃ ಅಣ್ ಅಸ್ತಿ ಚೇತ್ ಸವರ್ಣಾನಿ ನ ಗೃಹ್ಯಂತೆ. ಯದಿ ಉದಿತ್ ವರ್ಣಃ ಅಸ್ತಿ ಚೇತ್ ಸವರ್ಣ ವಿಧೀಯಮಾನಃ ವಾ ಭವತು ಅವಿಧೀಯಮಾನಃ ವಾ ಭವತು ಸವರ್ಣಃ ಗೃಹ್ಯತೆ. ಇದಾನೀಂ ಉದಿತಃ ಏಕಂ ಉದಾಹರಣಂ ಪಶ್ಯಾಮಃ. ತತ್ರ ಚೋಃ ಕುಃ ಅತ್ರ ಪಶ್ಯತು ಉಪೋತ್ತಮ ಪಾಯಿಂಟ್ ಅಸ್ತಿ ತೇನ ಅಣ್ ಅವಿಧೀಯಮಾನಃ ಚೋಃ ಕುಃ ಇತಿ ಉದಾಹರಣಂ. ಚೋಃ ಕುಃ ಇತಿ ಏಕಂ ಸೂತ್ರಮಸ್ತಿ. ಚವರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಕವರ್ಗಃ ಭವತಿ. ಇದಾನೀಂ ಚವರ್ಗೇಣ ಕಿಂ ಗೃಹ್ಯತೆ. ಅತ್ರ ಚೋ ಅತ್ರ ಚಕಾರಃ ಚೋಃ ಇತಿ ಅವಿಧೀಯಮಾನಃ ಚವರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಕವರ್ಗಃ ಇತಿ ಇತಿ ಸೂತ್ರಾರ್ಥಃ. ಚವರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಕವರ್ಗಃ ಭವತಿ ಚೇತ್ ಚಕಾರಃ ಅವಿಧೀಯಮಾನಃ. ಚವರ್ಗಸ್ಯ ಸ್ಥಾನೆ ಕವರ್ಗಃ ವಿಧೀಯತೆ ಇತಿ ಕಕಾರಃ ವಿಧೀಯಮಾನಃ. ಏವಂ ಚೋಃ ಕುಃ ಇತ್ಯತ್ರ ಚಕಾರಃ ಚಕಾರಃ ಇತ್ಯುಕ್ತೆ ಚವರ್ಗಃ ಅವಿಧೀಯಮಾನಃ. ಕುಃ ಇತ್ಯತ್ರ ಕುಃ ವಿಧೀಯಮಾನಃ ಅವಿಧೀಯಮಾನೋ ವಾ ಉದಿತ್ ಉದಿತ್ ವಿಷಯೆ ವಿಧೀಯಮಾನೋ ವಾ ಭವತು ಅವಿಧೀಯಮಾನೋ ವಾ ಭವತು ಸವರ್ಣಾನ್ ಗೃಹ್ಣಾತಿ ಇತ್ಯೇವ ಇತ್ಯುಕ್ತೆ ಚಕಾರಸ್ಯ ಸ್ಥಾನೆ ಚಕಾರಃ ಜಕಾರಃ ಝಕಾರಃ ಏವಂ ಚವರ್ಗ ಪಂಚಾಕ್ಷರಾಣಿ ಅಪಿ ಗೃಹ್ಯಂತೆ ಏವಮೇವ ಕವರ್ಗಸ್ಯಾಪಿ. ಏವಂ ಅಸ್ಯ ಸೂತ್ರಸ್ಯ ಕಿಂ ವೃತ್ತಿಃ ಆಗತಂ ಇತ್ಯುಕ್ತೆ ಅವಿಧೀಯಮಾನಃ ಅಣ್ ಯತ್ರ ಯತ್ರ ಶಾಸ್ತ್ರೇ ಅವಿಧೀಯಮಾನಃ ಅಣ್ವರ್ಣಃ ಭವತಿ ಸಹ ಅಣ್ವರ್ಣೋ ಅಣ್ವರ್ಣಃ ಭವೇತ್ ಅವಿಧೀಯಮಾನಃ ಭವೇತ್ ಅಣ್ ಉದಿತ್ ಅವಿಧೀಯಮಾನಃ ಭವೇತ್ ತದಾ ಕಿಂ ಭವತಿ ಸವರ್ಣಸ್ಯ ಸಂಜ್ಞಕೋ ಭವತಿ ಸಹ ಸವರ್ಣಾನ್ ಗೃಹ್ಣಾತಿ. ಏವಮೇವ ಉದಿತ್ ವರ್ಣಃ ಯತ್ರ ಕುತ್ರಾಪಿ ಶಾಸ್ತ್ರೇ ಭವತು ಸವರ್ಣಾನ್ ಗೃಹ್ಣಾತಿ. ಇದಾನೀಂ ಸವರ್ಣಾನ್ ಗೃಹ್ಣಾತಿ ನಾಮ ಸರ್ವೇ ಅಷ್ಟಾದಶ ಭೇದಾಃ ಅಕಾರಸ್ಯ ಅಷ್ಟಾದಶ ಭೇದಾಃ ಇಕಾರ ಉಕಾರಸ್ಯಾಪಿ ಅಷ್ಟಾದಶ ಭೇದಾಃ ಋಕಾರಃ ತ್ರಿಂಶತಃ ಇತಿ ವೃತ್ತಿಕಾರಃ ವದತಿ. ಋಕಾರಃ ತ್ರಿಂಶತಃ ಇತ್ಯುಕ್ತೆ ಋಲ್ ಋ ವರ್ಣಯೋಃ ಮಿತಸ್ಥಾವರ್ಣ್ಯಂ ವಾಚ್ಯಮಿತಿ ವಾರ್ತಿಕಂ ಪಠಿತಂ ಅಸ್ಮಾಭಿಃ. ಏವಂ ಋಕಾರಸ್ಯ ಅಷ್ಟಾದಶ ಭೇದಾಃ ಋಕಾರಸ್ಯ ದೀರ್ಘಾಭಾವಾತ್ ದ್ವಾದಶ ಭೇದಾಃ ಅಷ್ಟಾದಶ ದ್ವಾದಶ ತ್ರಿಂಶತ್ ಭೇದಾಃ ಸಂಪನ್ನಾಃ ಋಕಾರಸ್ಯಾಪಿ ತ್ರಿಂಶತ್ ಭೇದಾಃ ಯಚಃ ತದಪಿ ಅಸ್ಮಾಭಿಃ ದೃಷ್ಟಂ ದ್ವಾದಶ ಭೇದಾಃ ಹ್ರಸ್ವಾಭಾವಾತ್ ಅನುನಾಸಿಕ ಅನುನಾಸಿಕ ಭೇದೇನ ಯವಲಾ ದ್ವಿಧಾ. ಇದಾನೀಂ ಯಕಾರಃ ವಕಾರಃ ಲಕಾರಃ ಸಾನುನಾಸಿಕ ಯಕಾರಃ ಸಾನುನಾಸಿಕ ವಕಾರಃ ಸಾನುನಾಸಿಕ ಲಕಾರಂ ಗೃಹ್ಣಾತಿ ಸಯೇವ ತಸ್ಯ ತೇಷಾಂ ಸವರ್ಣಃ. ಇದಾನೀಂ ಯಕಾರಸ್ಯ ಸವರ್ಣಃ ಕಃ ವರ್ಣಃ ಇತಿ ಪ್ರಶ್ನೆ ಕೃತೆ ಸಾನುನಾಸಿಕ ಯಕಾರಃ ಯ ಇತಿ ವಕಾರಸ್ಯ ವ ಇತಿ ಲಕಾರಸ್ಯ ಲ ಇತಿ ಏವಂ ಲ ಇತಿ ಸಾನುನಾಸಿಕ ಲಕಾರಸ್ಯ ನಿರನುನಾಸಿಕ ಲಕಾರಃ ಸವರ್ಣಃ ಏವಂ ಪರಸ್ಪರೌ ತೌ ಸವರ್ಣೌ ತೇನ ಅನುನಾಸಿಕಾಸ್ತೇ ದ್ವಯೋಃ ದ್ವಯೋಃ ಸಂಜ್ಞಾ ತದೇವ ಉಕ್ತಂ ಮಯಾ. ಇದಾನೀಂ ಅತ್ರ ಪಶ್ಯಾಮಃ ಏಕಂ ಮಹಾಭಾಷ್ಯ ಏಕಂ ಕಾರಿಕಾ ಅಸ್ತಿ ಪೂರ್ವೇಣೈವ ಅಣ್ಗ್ರಹಾಃ ಸರ್ವೇ ಪರೇಣೈವ ಅಣ್ಗ್ರಹಮತಾಃ ಇನ್ಗ್ರಹಮತಾಃ ಋತೆ ಅಣುದಿತ್ ಸವರ್ಣಸ್ಯ ಏತತ್ ಪುನಃ ಪಠಾಮಿ ಪೂರ್ವೇಣ ಏವ ಅಣ್ಗ್ರಹಾಃ ಸರ್ವೇ ಪರೇಣ ಏವ ಇನ್ಗ್ರಹಮತಾಃ ಋತೆ ಅಣುದಿತ್ ಸವರ್ಣಸ್ಯ ಇತಿ ಏತದೇಕಂ ಪರೇಣತು. ತತ್ರ ಪೂರ್ವಸ್ಯಾಂ ಕಕ್ಷಾಯಾಂ ತತ್ರ ಪ್ರಶ್ನ ಕೃತಃ ಕದಾ ಪರೇಣ ಕದಾ ಪೂರ್ವೇಣ ತದಾ ಏಕ ಕಾರಿಕಾ ಮಹಾಭಾಷ್ಯಕಾರಃ ವದತಿ ಸರ್ವತ್ರ ಇನ್ 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 ಪ್ರತ್ಯಾಹಾರಃ ಯತ್ರ ಯತ್ರ ಭವತಿ ತದಾ ಸರ್ವೇ ಪರೇ இன் நாம பரேண நகாரேணைவ, இன் நாம பரேண நகாரேண, அண்ணு நாம பூர்வேண ஏவ. ஒன்லி எக்ஸப்ஷன் ஃபார் திஸ் இஸ் அனுதித் சவர்ணஸ்ய சாப்ரத்ய ரிதே அனுதித் சவர்ணஸ்ய ரிதே. த ஒன்லி எக்ஸப்ஷன் ஃபார் திஸ் ரூல் இஸ் அனுதித் சவர்ணஸ்ய சாப்ரத்ய. இதானிம் ரேஃப உஷ்மணாம் சவர்ணாக ந சந்தி தடேவ அத்ர மயா கலர் கிருதம் ஆயிவு ரத்தவர்ணஹ அஷ்டாதச வேதாஹ ரில் ரு த்ரிம்ஷத் வேதாஹ ஏவோ ஐ ஔ த்வாதச வேதாஹ ஹகாரஸ்ய சவர்ணஹ நாஸ்தி ய வ ல ஏதேஷாம் தௌ சவர்ணௌ பரஸ்பரம். ஏவம் ரேஃப உஷ்மணாம் சவர்ணாக ந சந்தி ரேஃபோஷ்மணம் சவர்ணாக ந சந்தி இது சிக்ஷா சாஸ்திரே ஏகம் வாக்கியம் அஸ்தி. ததனுசாரேன ஹகாரஹ ஊஷ்மவர்ணஹ அதஹ சவர்ணஹ நாஸ்தி ஹகாரஸ்ய ஹகார ஸ்வரூபமேவ சவர்ணஹ ஹகாரஸ்ய சவர்ணஹ ஹகார ஏவ. கிஞ்சித் அவகதம் வா? அஸ்து அக்ரிமசூத்திரம் பிரதி கச்சாமஹ பரசன்னிகர்ஷ சன்ஹிதா. ஏதத் சுலபம் அஸ்தி. வர்ணானாம் அதிசயிதஹ சந்நிதிஹ சம்ஹிதா சன்யஹ ஸ்யாத். அத்ர ஏதத் சன்யாசூத்திரம் அஸ்தி. பரஹ இத்யுக்தே அதிசயிதஹ, சன்னிகர்ஷ இத்யுக்தே சாமீப்யம். தத்ர த்வயோஹ வர்ணயோஹ மத்யே அர்த்தமாத்ரா கால வ்யவதானம் அர்த்தமாத்ரா கால வ்யவதானஸ்யாபி நியூன வ்யவதானம் அஸ்தி சேத். இதானிம் தேவ ப்ளஸ் ஆலயஹ இதி ஸ்வீகுர்மஹ. அகார ஆகாரயோஹ வ்யவதானம் தத்ர உச்சாரண சமயே வ்யவதானம் மா உச்சாரண சமயே அர்த்தமாத்ரஸ்ய அபேக்ஷயா நியூனம் பவேத் சேத் ததா சம்ஹிதா இதி உச்சதே. சோ ததேவ ஆங்கில பாஷையா மைய உக்தம் ததேவ சன்னிகர்ஷஹ அத்யந்தம் சாமீபியம் இதி உச்சதே. இன் பிட்வீன் டூ லெட்டர்ஸ் தேர் கேனாட் பி அ கேப் ஆஃப் லெஸ் தென் அர்த்தமாத்ரா. இஃப் தட் இஸ் தேர் தென் தட் இஸ் ஒன்லி சம்ஹிதா. சோ யதி சம்ஹிதா பவதி ததா கிம் பவதி? சந்திஹி பவதி. கேன பவதி? சந்தி நியமேன சூத்ரேண பவதி. ததா கிஞ்சித் வியத்யாசஹ பவதி. சம்ஹிதா யத்ர வர்ணானாம் உச்சாரண சமயே அத்தியந்தம் சாமீபியம் எது உச்சதே தத் சம்ஹிதா இதி உச்சதே. சயேவ பரசன்னிகர்ஷ சம்ஹிதா இதி சூத்ரேண வ்யவஹ்ரியதே. யதா சம்ஹிதா பவதி ததா கிம் பவதி? வர்ண வ்யத்யாயஹ பவதி. சயேவ சந்திஹி வர்ண வ்யத்யாயஹ ஏவ சந்திஹி. நது வர்ணானாம் யோஜனம் வா யோஜனா வா தத் சர்வம் சந்திஹினா. வர்ண வ்யத்யாயஹ சந்திஹி. கதா வர்ண வ்யத்யாயஹ பவதி இத்யுக்தே சம்ஹிதா யதா பவதி ததா வர்ணவ்யத்யாயஹ பவதி. சம்ஹிதா சம்ஹிதா சஞ்ஞாயாஹ கிஞ்சித் டெஃபினிஷன் அஸ்தி வா இத்யுக்தே பரசன்னிகர்ஷ சம்ஹிதா. பரஹ இத்யுக்தே அதிசயிதஹ அத்யந்தம். சன்னிகர்ஷ இத்யுக்தே சாமீபியம். அத்யந்தம் சாமீபியம் தஸ்ய மெஷர் கிஞ்சித் பவித்தவ்யம் கிள, பரிமாணம் கிஞ்சித் பவித்தவ்யம் கிள. தத் பரிமாணம் கிம் இத்யுக்தே அர்த்தமா லாகவம் அர்த்தமாத்ரஸ்ய அபேக்ஷையா கிஞ்சித் நியூனமேவ. இதானிம் தேவாலயஹ இத்யத்ர தேவ ப்ளஸ் ஆலயஹ இத்யத்ர அகார ஆகாரயோஹ அர்த்தமாத்ரஸ்ய அபேக்ஷையா கேப் நியூனம் அஸ்தி. ப்ரொனௌன்சியேஷன் யதா ப்ரொனௌன்சிய உச்சாரணம் குர்மஹ ததா அகார ஆகாரயோஹ அர்த்தமாத்ர நியூனம் சாமீபியம் அஸ்தி சேத் சன்னிகர்ஷஹ சாமீபியம் அஸ்தி சேத் ததா கிம் பவதி? சம்ஹிதா பவதி. சம்ஹிதயா கிம் பவதி? அகார ஆகாரயோஹ தீர்கஹ ஆகச்சதி. கேன சூத்ரேண இத்யுக்தே அகார சவர்ணே தீர்கஹ இதி சூத்ரம் அஸ்தி. ஏவம் சம்ஹிதா யத்ர யத்ர பவதி ததா தத்ர தத்ர வர்ணவ்யத்யாயஹ பவதி. வர்ணவ்யத்யாயஹ ஏவ சந்திஹி. தத்ர பஹவஹ சந்தயஹ சந்தி நியமானுசாரேண சந்திஹ கர்த்தவ்யஹ இதி விவேகஹ. ஏதத் சுலபம் அஸ்தி. பரசன்னிகர்ஷ சம்ஹிதா. ஹலோனந்தரா சம்யோகஹ. ஹலோனந்தரா சம்யோகஹ இதி अज्भिरव्यवीताहलः संयोगसंज्ञा स्युः अत्र संयुक्ताक्षराणि इति वदामः किल स एव संयोगः इति उच्यते व्याकरणशास्त्रे हलः इति पदच्छेदः हलः अन्तराः संयोगः प्रथमाभक्त्यैकवचनम् एतदपि संज्ञासूत्रमस्ति संयोगसंज्ञां विदधाति अन्तरशब्दस्य अर्थः अत्र व्यवधान अर्थे उपयुक्तः हलः अनन्तराः संयोगः अन्तराः इत्युक्ते तत्र व्यवधानमित्यर्थे अत्र प्रयुक्तः व्यवधानं तु विजातीयानामेव भवति न तु सजातीयानां इदानीं दशमकक्षाछात्राः नवमकक्षाछात्राः इदानीं दशमकक्षाछात्राः नवमकक्षाछात्रात् भिन्नाः विजातीयाः अतः तेषां व्यवधानं भवति एते एकस्यां कक्षायाम् उपविशन्ति ते अन्यस्यां कक्षायाम् उपविशन्ति इदानीम् अस्मिन् सूत्रे किम् उच्यते इत्युक्ते अज्भिः अव्यवहिताः हलः संयोगसंज्ञां प्राप्नुवन्ति यदि एकः हल् वा भवतु अनेके हलः वा भवन्तु तदा किं भवति संयोगसंज्ञां संयोगः भवति तर्हि एकैकस्य संयो इदानीं कृष्णः इति अस्ति कृष्णः इति पदे षकारणकारयोः अज्भिः अव्यवहितः अस्ति इत्युक्ते मध्ये अच् नास्ति अतः संयोग संयुक्ताक्षरम् इति वदामः स एव संयोगः इति वदामः व्याकरणे व्याकरणशास्त्रे संयोगः इदानीं षकारस्य संयोगसंज्ञा वा नकारस्य संयोगसंज्ञा वा इति प्रश्नः समुदायस्यैव संयोगसंज्ञा हलोऽनन्तरा संयोगः अनन्तरम् अवकाश अवधि परिधान अन्तर्दिभेद तदर्थे इति अमरः अमरकोशे एतावान् अर्थः अस्ति अनन्तरशब्दस्य व्यवधानम् इति अर्थः अस्माभिः अस्मिन् सूत्रे स्वीकृतः अविद्यमानम् अन्तरं व्यवधानं येषामिति विग्रहः तत्र अनन्तराः इति शब्दस्य इदानीं न अन्तराः अनन्तराः हलः अनन्तराः अज्भिः अव्यवीताः हलः संयोगसंज्ञां प्राप्नुवन्ति अत्र समुदायस्यैव संयोगसंज्ञा न तु प्रत्येकस्य किमर्थम् इत्युक्ते व्याख्यानात् अस्माभिः कथं ज्ञातं भवद्भिः इत्युक्ते व्याख्यानात् व्याख्यानं कुत्र अस्ति महाभाष्ये अस्ति तत्र संयोगः इति महासंज्ञाकरणम् अस्ति महासंज्ञाकरणं नाम किञ्चित् बृहत् संज्ञा अस्ति वृद्धिः इति किञ्चित् लघु अस्ति गुणः इति लघु अस्ति टि घू भा इत्यादि एक वर्णात्मकसंज्ञा इत्युक्ते वर्णद्वयात्मकसंज्ञा अपि व्याकरणे सन्ति संयोगः इति महासंज्ञा इत्युक्ते अत्र प्रायः सप्तवर्णाः अष्टवर्णाः सन्ति महासंज्ञाकरणेन किञ्चित् विशेषप्रयत्नः कृतः पाणिनिना इत्युक्ते तत्र समुदायस्यैव संयोगसंज्ञा इति वयम् अस्माभिः ज्ञातुं शक्यते सुप्तिगन्तं पदम् सुबन्तं तिङन्तं पदसंज्ञं स्यात् इति सूत्रार्थः सुप्तिगन्तं पदम् एतत् सुलभमस्ति सुप्तिङौ अन्तौ यस्य तत् सुप्तिगन्तम् इदानीं सुप् नाम किं तिङ् नाम किम् एतदेव अस्माभिः ज्ञातव्यम् अस्मिन् सूत्रे सुप् नाम एकविंशतिप्रत्ययाः कुत्र पठिताः एकविंशतिप्रत्ययाः सौजसमोक्षस् ताभ्यां विष्णेभ्यां व्यस्न्यसिभ्यां व्यस्न्यसोऽसां नियो सुप् इति चतुर्थाध्यायस्य प्रथमपादे द्वितीयं सूत्रम् तत्र अष्टाध्यायीं पश्यन्तु कृपया चतुर्थाध्यायस्य प्रथमपादे द्वितीयं सूत्रम् सु औजस् अमौक्षस् एते सर्वे सुप्रत्ययाः सुप् यस्य अन्ते तत् सुबन्तम् सुबन्तम् नाम नामपदम् तिङ् यस्य अन्ते तत् तिङन्तम् तिङन्तम् नाम क्रियापदम् तिङ् नाम किम् इत्युक्ते तिप्तस्जि सिप्तस्थामिप्स्मस् ताथां ज तासातां त्वम् इट्वहि मयि इति सूत्रमस्ति तत् सूत्रं कुत्र अस्ति तृतीयाध्यायस्य चतुर्थपादे 78 सूत्रम् अष्टसप्ततितमसूत्रम् अस्ति तत्र अष्टादशप्रत्ययाः पाणिनिना निर्दिष्टाः सौजसमोट् इति सूत्रे तत्र एकविंशतिप्रत्ययाः निर्दिष्टाः यस्मिन् पदे सुप्रत्ययाः भवन्ति सः यस्य पदस्य अन्ते सुप्रत्ययाः भवन्ति तत् तत् सुबन्तम् इति कथ्यते। यस्य पदस्य अन्ते तिङ् प्रत्ययः भवन्ति तत्पदं तिङन्तम् इति उच्यते। इदानीं सुबन्तं तिङन्तमेव व्याकरणशास्त्रे पदम्। अपदं न प्रयुञ्जीत इति वाक्यमस्ति। अस्माभिः राम इति प्रातिपदिकस्य प्रयोगः न कर्तव्यः, यतोहि अपदं न प्रयुञ्जीत। पदस्य प्रयोगेनैव प्रकृतिप्रत्ययस्य योजनेनैव पदं सिध्यति। एतेन किं ज्ञायते इत्युक्ते प्रकृतिप्रत्ययस्य योगेनैव पदं सिध्यति। प्रकृतिप्रत्ययसमुदायः एव पदं भवति, न तु पृथक्तया। इदानीं पुरुषः गच्छति इत्यत्र रामः गच्छति इत्यत्र रामः इति सुबन्तं पदम्। रामसु इति पुरुषसु, रामसु इति रामप्रातिपदिकं, सु प्रत्ययं, तस्य प्रयोगः अस्माभिः करणीयः। इदानीं पुरुषः गच्छति इति स्थाने पुरुष सु गम् ति इति प्रयोक्तुं शक्यते वा इति प्रश्ने कृते न कर्तुं शक्यते। किमर्थं न कर्तुं शक्यते? अपदं न प्रयुञ्जीत इति शास्त्रनियमः अस्ति, व्याकरणशास्त्रे शास्त्रनियमः अस्ति। इदानीम् अपदं न प्रयुञ्जीत इत्युक्ते पद यदि प्रयोगं कुर्मः तर्हि किं भवति? इदानीं व्याकरणशास्त्रस्य प्रकृतिप्रत्ययविभागेन पदप्रयोगेन यदि वयम् उच्चारणादिकं कुर्मः तर्हि अभ्युदयं भवति, इत्युक्ते धर्मसम्पादनं भवति अस्माभिः अस्माकम् इत्येव संस्कृतभाषायाः महत्त्वं। तादृशधर्मसम्पादनं न भवति। एवं पुरुषासु गम्ति इति एवं पुरुषः गच्छति इति अस्माभिः एव अवगन्तव्यं चेत् रामः गच्छति, रामः क्रीडति, रामसु क्रीडति, अहं पिबामि, अस्मद् सु पा मि इति वयं वदामः चेत् तादृशप्रयोगः वाक्ये वा न करणीयः। सुप्तिगन्तं पदम् इति सूत्रम् अनुसृत्य सुबन्तं तिङन्तमेव पदसंज्ञं भवति, तस्यैव प्रयोगः शास्त्रे करणीयः इति विवेकः। एवं संज्ञाप्रकरणम् अस्माभिः समाप्तम्। अहम् एकं कार्यं करोमि, एकम् असैन्मेण्ट् प्रेषयामि। असैन्मेण्ट् ऐच्छिकम् असैन्मेण्ट् अस्ति। यदि भवन्तः एक्ससैज् प्रेषयामि, यदि सर्वे भवन्तः कर्तुम् इच्छन्ति चेत् कुर्वन्तु। तत्रापि मार्गद्वयमस्ति, यदि लिखित्वा अहम् अड्रेस् अपि प्रेषयामि, लिखित्वा प्रेषयन्ति चेत् अहं करेक्ट् कृत्वा पुनः कोरियर् करोमि। यदि टैप् कृत्वा प्रेषयति चेत् तत्रापि अहं करेक्षन् करोमि, परन्तु झटिति करेक्षन् करोमि इति न, मासान्ते अवश्यं करोमि। परन्तु कृपया एक्ससैज् कुर्वन्तु। अहम् अग्रिमकक्षायां पुनः अस्य यदि बहवः जनाः पुनः आगच्छन्ति चेत् किञ्चिदिव विवरणं कृत्वा अनुदित् सवर्णस्य चाप्रत्ययः विशेषतः तत्सूत्रस्य विवरणं कृत्वा अग्रे वयं सरामः। अच्छन्दिप्रकरणे वयं गमिष्यामः। अस्तु, यदि संशयाः सन्ति चेत् पृच्छन्तु। किं फाण्ट् उपयोगं कर्तव्यमिति अहं तदपि प्रेषयामि। अवश्यं तत् फाण्ट् लिङ्क् अपि प्रेषयामि, तत् डौन्लोड् कृत्वा उपयोक्तुं शक्यते, नो चेत् लिखित्वा एव प्रेषयितुं शक्यते। अस्तु, धन्यवादाः। आगामिकक्षायां तत् पास्वर्ड् अपि सुजाता भगिनी अहं भवत्यै प्रेषयामि अवश्यम्। अस्तु, राम राम राम। येनाक्षरसमाम्नायमधिगम्य महेश्वरात्कृष्णम् व्याकरणम् प्रोक्तम् तस्मै पाणिनीये नमः येन धौतागिरः पुंसां विलयशब्दभावैः तमश्चाज्ञानगम्भिन्नम् तस्मै पाणिनीये नमः।